उत्तिष्ठोत्तिष्ठ श्रीलक्ष्मी उत्तिष्ठ हरिवल्लभे उत्तिष्ठ वैकुंठ निलये त्रैलोक्यं मंगलं कुरु उत्तिष्ठोत्तिष्ठ श्रीलक्ष्मी उत्तिष्ठ हरिवल्लभे उत्तिष्ठ वैकुंठ निलये त्रैलोक्यं मंगलं कुरु उत्तिष्ठोत्तिष्ठ श्रीदेवी उत्तिष्ठ जगदंबिके उत्तिष्ठ सकलाराध्ये त्रैलोक्यं रक्षणं कुरु उत्तिष्ठोत्तिष्ठ श्रीदेवी उत्तिष्ठ जगदंबिके उत्तिष्ठ सकलाराध्ये त्रैलोक्यं रक्षणं कुरु भास्वानुदेश्यति हसन्ति सरोरुहाणि प्राहातिकोपवनयेश तनोति गन्धं पूजन्ति पक्षिनिवहास्तव दर्शनार्थं श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् भास्वानुदेश्यति हसन्ति सरोरुहाणि प्राभातिकोपवनयेश तनोति गन्धं कूजन्ति पक्षिनिवहास्तव दर्शनार्थं श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् तारालिमण्डितनभस्तलमध्यवर्ती शीतांशुरेशवनदिं त्वपरं प्रविष्टः प्राची प्रसन्नवदना च बभूव दीप्ता श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् अखण्डलाग्नियमनिरृतिमुख्यलोकपालास्तथा ग्रहगणारविचन्द्रमुख्याः त्वत्पादपङ्कजतले प्रणमन्ति धन्याः श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् अखण्डलाग्नियमनिरृतिमुख्यलोकपालास्तथा ग्रहगणारविचन्द्रमुख्याः त्वत्पादपङ्कजतले प्रणमन्ति धन्याः श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् धावन्ति विप्रनिचयस्तव पूजनार्थं निर्यान्ति भक्तनिवहास्तव दर्शनार्थं ध्यायन्ति योगिपतयस्तव मूलरूपम् श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् उत्तिष्ठ देवि परिपालय भक्तवर्गम् द्वारे स्थितो भजति यस्तव दिव्यमूर्तिम् हस्ते प्रगृह्य फलपुष्पसुचन्दनादीन् श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् उत्तिष्ठ देवि परिपालय भक्तवर्गम् द्वारे स्थितो भजति यस्तव दिव्यमूर्तिम् हस्ते प्रगृह्य फलपुष्पसुचन्दनादीन् श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् उत्तिष्ठ दीनबधिरान्ध दरिद्रलोकरक्षाविधौ सततमध्यधिकं निमग्ने मातर्विमुञ्च परितः करुणाकटाक्षम् श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् प्रातः स्मरामि कमनीयगुणांस्त्वदीयान् वेदादिषु प्रकटितान् मुनिभिः प्रगीतान् यत्कीर्तनेन भुवि भूरि फलं लभन्ते श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् प्रातः स्मरामि कमनीयगुणांस्त्वदीयान् वेदादिषु प्रकटितान् मुनिभिः प्रगीतान् यत्कीर्तनेन भुवि भूरि फलं लभन्ते श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् श्रेयस्करी नमित भक्तवृन्दं तरस्ते सौख्यङ्करी दुरितनाशिनि पुण्यदाते भाग्यङ्करी प्रणत दीन जनार्तिनाशे श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् इच्छानुरूप सुविराजित दिव्यलीले पूर्णेन्दुबिम्बवदने वरदानशीले मातर्नमामि हृत्कमलविराजमाने श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् इच्छानुरूप सुविराजित दिव्यलीले पूर्णेन्दुबिम्बवदने वरदानशीले मातर्नमामि हृत्कमलविराजमाने श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् प्रातर्नमामि जननी तव दिव्यनामम् प्रातः स्मरामि वरदे तव दिव्यरूपम् प्रातः करोमि तव मन्त्रजपं पवित्रम् श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् प्रातर्नमामि जननी तव दिव्यनामम् प्रातः स्मरामि वरदे तव दिव्यरूपम् प्रातः करोमि तव मन्त्रजपं पवित्रम् श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् दारिद्र्यदुःखशमनी निरतान्न दाते वेदोक्तमन्त्रनिरतार्चित भद्रमूर्ते संक्षेमदाते श्रीदेवि भव्यरूपे श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् दारिद्र्यदुःखशमनी निरतान्न दाते वेदोक्तमन्त्रनिरतार्चित भद्रमूर्ते संक्षेमदाते श्रीदेवि भव्यरूपे श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् पापाम्बुराशि परिशोषित दिव्यरूपे स्वर्गापवर्ग पदवी प्रदमानसाब्जे भक्तेष्टदाते भुवनावन दिव्य दीक्षे श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् दीपश्च धूपश्च निवेदनं च प्रशस्तमाङ्गल्य सुवस्तु कुञ्जम् सम्पादितं देवि तवार्चनार्थम् श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् कर्पूरनीराजनवस्तुयुक्ता वीणा विनोदाञ्चितरागरक्ताः त्वद्वारभूमौ निवसन्ति भक्ताः श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् प्राच्यं दिशि स्वर्णसमानतेजाः सूर्यप्रभुः सुन्दरदिव्यमूर्ति प्रकाशयुक्तां जगतीं करोति श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् कासारपद्मानिलसन्ति रागात् पीत्वा मरन्दकमलान्तरस्थं कुर्वन्ति झेङ्कारुतं द्विरेफाः श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् वेदैश्च वेदान्तवचः प्रबन्धैः स्तुवन्ति ते दर्शनमर्थयन्तः देह्यम्बिके दर्शनमाशुतेभ्यः श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् दानं च वेदाध्ययनं च यज्ञगोरक्षणं वर्तकहालिकत्वे एतेषु सक्तान् कुरु भक्तवर्यान् श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् कारुण्यरूपे करुणान्तरङ्गे विश्वम्भरे विष्णुपदाब्जधात्री कल्पकृते भक्तियुजां जनानां श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् इहानुरूपान् सकलार्थकामान् परत्र भोग्यं तव सन्निधानं देह्यम्बतेभ्यः तव किङ्करेभ्यः श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् ब्रह्माण्डभाण्डाञ्चितकुक्षिमूले सृष्टिस्थितिप्रलयकार्यकर्त्री यच्छाम्बभक्तेष्वभयं च धैर्यं श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् भक्तानन्याधिकभक्तियुक्तान् लोकान् सवस्तान् जगदेकमातः पातुं समुत्तिष्ठकटाक्षपातैः श्रीमहालक्ष्मी हरिप्रिये तव सुप्रभातम् मातः समस्तजगतां मधुकैटभारेः वक्षो विहारिणि मनोहर दिव्यरूपे श्रीस्वामिनिश्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् मातः समस्तजगतां मधुकैटभारेः वक्षो विहारिणि मनोहर दिव्यरूपे श्रीस्वामिनिश्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले विधिशङ्करेन्द्रवनिताभिवन्दिते वृषशैलनाथदयिते तव सुप्रभातम् ईषत्प्रफुल्लसरसीरुहनारिकेणपूगद्रुमादिसुमनोहरपालिकानाम् आवातिमन्दमनिलः सह दिव्यगन्धैः శేషాద్రిశేఖర దయితే తవ సుప్రభాతం. ఈషత్ ప్రఫుల్ల సరసీరుహ నారికేళ పూగద్రుమాది సుమనోహర పాలికానాం ఆవాతి మందమనిల సహ దివ్య గంధైః శేషాద్రిశేఖర దయితే తవ సుప్రభాతం. శ్రీ మహాలక్ష్మీ శుభ సుప్రభాతం, సమర్పితం సర్వజనానుమోదం. శుభాని పుష్ణాతు సదా పఠద్భ్యో లోకా సమస్తా సుఖినో భవంతు. శ్రీ మహాలక్ష్మీ శుభ సుప్రభాతం, సమర్పితం సర్వజనానుమోదం. శుభాని పుష్ణాతు సదా పఠద్భ్యో లోకా సమస్తా సుఖినో భవంతు.